शिव उवाच दिवित्वं भक्तसुलभे सर्वकार्यविधायिनी कलौहि कार्यसिद्ध्यर्थम् उपायं ब्रूहि यत्नतः दिव्युवाच शृणु देव प्रवक्षामि कलौ सर्वे।